एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते नेपाली सेनायाः परिचालनाय स्वीकृतिः प्रदत्तास्ति। मन्त्रिपरिषदा निर्णयं कृत्वा प्रधानमन्त्रिणा विहितस्य परामर्शस्य पश्चात् राष्ट्रपतिना पौडेलेन सेनायाः परिचालनाय स्वीकृतिः प्रदत्ता वर्तते। निर्वाचन सुरक्षा व्यवस्थां सुदृढां विधातुं सर्वकारेण विहितस्य परामर्शनस्य अनुसारेण राष्ट्रपतिना पौडेलेन सेनायाः परिचालनस्य कार्यम् अनुमोदितमस्तीति ह्य राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा प्रदीप कोइराला इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितम् अस्ति। प्रधानमन्त्रिणा सुशीला कार्किणा नेकपा एमाले दलस्य लोकतान्त्रिक समाजवादी दलस्य च नेतृभिः सह ह्य पृथक पृथक मेलवार्ता विहितास्ति। एमाले दलस्य महासचिवेन शंकर पोखरेलेन सहितैः नेतृभिः सह बालुवाटारावर्तिनी प्रधानमन्त्री निवासे ह्यो विहिते विमर्शने। प्रधानमन्त्री कार्की आगामिना फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमाने प्रतिनिधिसभायाः निर्वाचने सहयोगं विधातुम् अन्वरुणत। तदवसरे प्रधानमन्त्री कार्की निर्वाचनम् सम्पादयितुम् प्रतिबद्धताम् अभिव्यज्य सहयोगस्य कृते च एमाले दलम् अन्वरुणत। मेलवार्तायाम् सहभागी एमाले दलस्य उपमहासचिव प्रदीप ग्यवाली निर्वाचनस्य वातावरणम् निर्मातुम् प्रधानमन्त्रिणा समक्षम् अनुरोधः विहितोऽस्तीति अगदत्। तथैव पूर्वे जिहुई एव लोकतान्त्रिक समाजवादी दलस्य अध्यक्षेण महन्त ठाकुरेण च सह मेलवार्ताम् विदधाना प्रधानमन्त्री कार्की संविधानस्य क्रियान्वयनाय निर्वाचनम् अपरिहार्यमस्तीति चर्चयन्ती निर्वाचनस्य कृते सर्वैः राजनीतिक दलैः सहयोगः कर्तव्य इति उक्तवती वर्तते। प्रधानमन्त्रिणा कार्किणा अध्यक्षाय ठाकुराय प्रतिनिधिसभायाः निर्वाचनस्य कृते वातावरणम् निर्मातुम् भूमिकायाः निर्वहणाय अन्वरुणत। तदवसरे अध्यक्षेण ठाकुरेण निर्वाचनस्य पूर्वकार्ये सम्प्रति आत्मनः संलग्नता वर्तते इति ज्ञापयता सम्भावित गठबन्धनस्य विषये प्रधानमन्त्री कार्की संसूचिता आसीत्। प्रधानमन्त्री सुशीला कार्की वदति सामाजिक सुरक्षा प्रणाली सर्वेषां कृते सुदृढा प्रभावकारिणी च विधातव्या। अष्टमस्य सामाजिक सुरक्षा दिवसस्य अवसरे सामाजिक सुरक्षा कोषेण ह्य प्रधानमन्त्री कार्यालये आयोजिते कार्यक्रमे भाषमाणा प्रधानमन्त्री कार्की सामाजिक सुरक्षां समतामूलां विधातुं योगदानस्य आधारेण सामाजिक सुरक्षायाः प्रभावकारि क्रियान्वयनम् कर्तव्यं भवतीति विचारं व्यक्तवती। तदवसरे सामाजिक सुरक्षां सुदृढां विधातुं सर्वकारस्य सहयोगो भविष्यतीति प्रतिबद्धतां प्रकटयन्ती प्रधानमन्त्री कार्की श्रमिकाणां कर्मकराणां च सामाजिक सुरक्षायाः दायित्वं भारं न मन्तुमपि गौरवकार्यस्य रूपेण स्वीकर्तुं वृत्तिप्रदायकाः संस्थाः अन्वरुणत। कार्यक्रमे समवृत्ति सामाजिक सुरक्षा मन्त्रालयस्य सचिवेन डाक्टर कृष्णहरि पुष्करेण सामाजिक सुरक्षा कोषस्य कार्यकारी निर्देशकेन कविराज अधिकारिणा नेपाल उद्योग वाणिज्य महासंघस्य अध्यक्षेण चन्द्र ढकालेन च लघुद्योगेषु मध्यमोद्योगेषु च कार्यरताः श्रमिकाश्च सामाजिक सुरक्षा कोषे योजनीयाः भवन्तीति धारणा अभिव्यक्ता आसीत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रिणा जगदीश खरेलस्य समुपस्थितौ मन्त्रालयान्तर्गतानां सार्वजनिक सेवा प्रसारण नेपालस्य राष्ट्रिय समाचार समितेः गोर्खापत्र संस्थानस्य प्रेस काउन्सिल नेपालस्य न्यूनतम पारिश्रमिक निर्धारण समितेश्च कर्मकराणां च सामाजिक सुरक्षा कोषे आबद्धतायै निर्मिते सहमति पत्रे हस्ताक्षरणं विहितम् आसीत्। सहमतिपत्रे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यवाहक प्रमुख प्रशासकीयाधिकृतेन विष्णुराम न्यौपानेविदेन हस्ताक्षरणं विहितम् अस्ति। अत्रान्तरे संचार सूचना प्रविधि मन्त्री जगदीश खरेल ह्यस्तन दिवसात् क्रियान्वयनत्वेन सर्वेष् सर्वकारीय संचार माध्यमेष् योगदाने आधृत सामाजिक सुरक्षाया कार्यक्रम प्रारब्धो वर्तते इति संसूचितवान् वर्तते। संचार सूचना प्रविधि मन्त्रालय पूर्वे द्यू पत्रकार ईशा भाषमाण संचार मन्त्री खरेल एवं संसूचितवान् अस्ति। गृहमन्त्री ओम प्रकाश अरियाल निगदति भयरहिते शान्तिपूर्णे च वातावरणे निर्वाचनस्य सम्पादनाय सर्वकारेण पूर्णत तत्परतापूर्वकं पूर्वकार्याणि विधीयमानानि वर्तन्ते। संसद सार्वजनिक नीति प्रत्यायोजित विधायन समिते ह्य उपविष्टे उपवेशे गृहमन्त्री अरियाल निष्पक्षं शान्तिपूर्णं च निर्वाचनं सम्पादयितुं सर्वकारेण पूर्ण प्रतिबद्धतया कार्यं विधीयमानमस्तीति असूचयत्। गृहमन्त्री अरियाल लुण्ठितानां शस्त्रास्त्राणां पलायितानां बन्दीजनानां च अन्वेषणाय सर्वेषां सुरक्षानिकायानां समन्वयेन विशेषानुसन्धान समूह परिचालितोऽस्तीति च असूचयत्। एवमेव आन्दोलनस्य क्रमे त्रोटन भञ्जनाग्निदाहादि कार्येषु संलग्नाः 95.5% जनाः अधुनावधि निगृहीताः सन्ति। तेषु 83.2% जनानां विरूद्धे आपराधिक न्यायिक प्रकरणं पञ्जीकारितमस्तीति च गृहमन्त्री अरियाल समितिम् अज्ञापयत्। उपवेशे पश्चात्तन घटनाक्रमे सर्वकारेण जेएनजी युवसन्तत्या राजनैतिक दलैश्च परस्परं निषेधं कर्तुम् ईप्सितमस्ति वा इति दृष्टं वर्तते इति चर्चयन्तः सांसदाः सर्वपक्षेषु विश्वासस्य वातावरणस्य निर्माणाय सर्वकारेण नेतृत्वं ग्रहणीयम् इति प्रावोचन्। एवमेव उपवेशे सांसदाः राजनीतिक विश्वासस्य वातावरणं निर्मातुं तत्कालं राष्ट्रियसभायाः उपवेशः आयोजनीयः, सुरक्षानिकायानां मनोबलं वर्धनीयं चेत्यादिषु विषयेषु गृहमन्त्रालयस्य ध्यानम् आकर्षयन्। पाटनवर्तिना उच्च न्यायालयेन वैद्युत धूम्रदण्डस्य माध्यमेन सुवर्णस्य तस्करस्य आरोपे निगृहीतं सम्प्रति कारागारे स्थितं पूर्वसभामुखं कृष्णबहादुर मरा इत्यमुं 20 लक्षाणां रूप्यकाणां न्यासवित्तं संस्थाप्य उन्मोचयितुमादिष्टं वर्तते। न्यायाधीशद्वयस्य अर्जुन प्रसाद कोइराला विधस्य तेजेन्द्र प्रसाद शर्मणश्च संयुक्त न्यायपीठेन एवं आदिष्टमस्ति। मरा गताश्विन मासस्य अन्तिम सप्ताहे नेपाल प्रहरिणा केन्द्रीय अनुसन्धान निकायेन स्वर्ण तस्करस्य आरोपे निगृहीतः आसीत्। नेपाली कम्युनिष्ट दलस्य जनता समाजवादी दलस्य एकीकरणस्य पक्षधर समूहस्य जनजागरण दल नेपालस्य नेकपा बहुमत विद्रोही समूहस्य नेकपा विद्रोही समूहस्य च मध्ये एकताया घोषणा विहिता अस्ति। काष्ठमण्डपे पूर्वेद्युः एकस्मिन् कार्यक्रमे दलैकताया घोषणां विधाय सहमतिपत्रे हस्ताक्षराणि विहितानि सन्ति। सहमतिपत्रे नेपाली कम्युनिष्ट दलस्य संयोजकेन पुष्पकमल दाहाल प्रचण्डेन, सहसंयोजकेन माधव कुमार नेपालेन, जसपा एकीकरण पक्षधरस्य समूहात् संघीय परिषद अध्यक्षेण राजेन्द्र श्रेष्ठेन च हस्ताक्षराणि विहितानि वर्तन्ते। अधिकार दुरूपयोग अनुसन्धान आयोगेन धनुषा जनपदस्य कमला नगरपालिकायाः तात्कालिकेन नगर प्रमुखेण राम उद्गार गोइति इत्यनेन सहितानां 10 जनानां विरूद्धे ह्य काष्ठमण्डप वर्तिनि विशेष न्यायालये आरोपपत्रं पञ्जीकारितम् अस्ति। आयोगस्य प्रवक्तु राजेन्द्र कुमार पौडेलस्य अनुसारेण लग्मा बजार समीपस्थ पुष्करिण्या तटे मृत्तिकाया पूरणस्य कार्ये भ्रष्टाचार सम्भूतोऽस्ति इति उक्तं वर्तते इति समाचारः।